ప్రాతిపదికాధిక్యం పరిమాణాధిక్యం వచనమాత్రం తథా సంబోధనం ఏతేషు అర్థేషు వివక్షితేషు ప్రాతిపదికాత్ ప్రథమా విభక్తి భవతి ఇది అవగతం. అగ్రే ద్వితీయా విభక్తి కదా భవతి తత్ర కిం నిమిత్తం ఇది ద్రష్టవ్యం. యథా మయా ఉక్తం సిద్ధాంతకౌముద్యాం ప్రత్యేకం విభక్తౌ ఆదౌ కారక విభక్తి ఉచ్యతే తతః ఉపపద విభక్తి ఉచ్యతే. ద్వితీయాభక్తి తథైవ ఆదౌ కారక విభక్తి. ద్వితీయాభక్తే నిమిత్తం భవతి కర్మకారకం. కర్మణి ద్వితీయా ఇది సూత్రం. కర్మకారక ప్రయుక్త ద్వితీయా విభక్తి భవతి. ఏం తర్హి కర్మకారకం నామ కిం ఇది జ్ఞాతవ్యం. అతః ద్వితీయ విభక్తి ప్రకరణే ప్రథమతయా కర్మకారక విషయ సూత్రాన్ని సంతి. కిం కిమస్తి కర్మకారకే ఇది పశ్చాస్తే రాదౌ కర్మ సమయ. కర్మ నామ కిం ఇత్యుచ్యతే. తతః అనభిహితాధికారః అస్తి కర్మే కర్మణి అర్థాత్ కర్మ సమయకేషు. కర్మ ప్రధానం కర్మ ఇది భవతి. అనిశ్చితం కర్మ భవతి. అకథితం కర్మ భవతి. ఏవం అకర్మక ధాతూనాం విషయే కర్మ సంభవతి వా న వా ఇది ప్రశ్నః భవతి. నిగంతానాం ప్రయోగే కథం కర్మపదం భవతి ఇత్యపి జ్ఞాతవ్యం భవతి. తతః క్వచిత్ ఆధారస్య కర్మత్వం విధీయతే. వస్తుతః ఆధారస్య అధికరణ సంజ్ఞా స్యాత్ కింతు కర్మత్వం విధీయతే. ఏవం కర్మకారక విషయే బహూని విషయాని సంతి. అతయే వస్తుతః అస్య కారక ప్రకరణం ఇది నామ. యద్యపి అయం విభక్త్యర్థ విచారః ఏవ. కథం విభక్తి భవతి ఇది విచారః ఏవ. కింతు విభక్తౌ కారకస్యైవ విషయః అధికః భవతి. సో ఇట్ ఇస్ మోస్ట్లీ ద కారక విచ్ గ్యాదర్స్ మోస్ట్ అటెన్షన్ అండ్ దట్ ఇస్ వై ద ప్రకరణ హస్ బీన్ నేమ్డ్ కారక ప్రకరణ. కర్మకారక విషయే ఏతావంతః విచారాః సంతి. తతః ఉపపద ద్వితీయా భవతి. క్వ అన్యేషాం పదానాం యోగే ద్వితీయా విభక్తిః భవతి. తత్రైవ ఉపపద విభక్తౌ కర్మ ప్రవచనీయ సంజ్ఞా ఉచ్యతే. కర్మ ప్రవచనీయః ఇతి కాచిత్ సంజ్ఞా. తస్యాః సంజ్ఞాయాః యోగేపి ద్వితీయా విభక్తిః భవతి. తర్హి కా సంజ్ఞా కథం ఉపయోక్తవ్యా ఇత్యాది రీత్యా విచారాః భవంతి. ఏతే సర్వే విచారాః ద్వితీయా విభక్తౌ అస్మాభిః అధ్యేతవ్యాః సంతి. ఆదౌ కారకం. వస్తుతః ఇదానీమేవ కారకస్య ఆరంభః. ప్రథమా విభక్తేః కారకస్య నిమిత్తత్వం నాస్తి. యథా దృష్టం కారక ఇస్ నాట్ ఎ నిమిత్త ఫర్ ప్రథమా విభక్తి. అతః ఇదానీం కారకాధికారః ఆరభ్యతే స్వీక్రియతే దీక్షితైః కారకే ఇతి సూత్రం. ఇత్యధికృత్య ఇతి సూత్రార్థం లిఖితః. సూత్రేషు యది మమ పీఠికా స్మర్యతే అథవా ఇదానీం అష్టాధ్యాయీ కక్ష్యా యది శ్రుతా షడ్విధాని సూత్రాణి సంతి. సంజ్ఞా పరిభాష విధి నియమః అతిదేశః అధికారః కారకే ఇది అధికార సూత్రం. ఇత ఆరభ్య అర్థాత్ ఇదం సూత్రం భవతి ప్రథమాధ్యాయస్య చతుర్థ పాదే త్రయోవింశతితమం సూత్రం. ఇతః ఆరభ్య తత్ప్రయోజకో హేతుశ్చ ఇది అస్యైవ పాదస్య పంచపంచాశత్తమ సూత్ర పర్యంతం కారకాధికారః. ఇత్యుక్తే అగ్రిమ సూత్రాదారభ్య ప్రత్యేకం సూత్రే కారకే 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 ఇది అధికారః భవతి. సర్వత్ర కారకం ఇది సంజ్ఞా భవతి. అస్మిన్ అధికారే విహితానాం సర్వేషాం కారకం ఇది సంజ్ఞా భవతి ఇది సూత్రార్థః. సో దిస్ అధికార ఎక్స్టెండ్ ఫర్ అ సర్టన్ వే. సో ఎవ్రీథింగ్ విచ్ కమ్స్ అండర్ ద పర్వ్యూ ఆఫ్ దిస్ అధికార విల్ బి కాల్డ్ కారక. కారక ఇది సంజ్ఞా. సా సంజ్ఞా సర్వేషాం अग्रे उच्यमानानां भवति इति अनेन सूत्रेण ज्ञायते। वस्तुतः कारकाधिकारे कारकाणां क्रमः कथम् इति द्रष्टव्यम्। अस्माभिः कथमधीयते इदानीं द्वितीया विभक्तिः अतः आदौ कर्मकारकम्, ततः तृतीया विभक्तिः अतः कर्तृकारकं कर्णकारकम् इत्यादिरीत्या अधीयते। वस्तुतः अष्टाध्याय्यां कारकाणां क्रमः तथा नास्ति। अष्टाध्याय्यां पाणिनिना आदौ अपादानकारकम् उच्यते, ततः सम्प्रदानकारकम्, पुनः करणकारकम्, अधिकरणकारकम्, कर्मकारकम्, अन्ते कर्तृकारकम् इति अष्टाध्याय्याः क्रमः। अष्टाध्याय्याः क्रमस्यापि कारणमस्ति। देर् ईस् अ रीज़न् वै पाणिनि हेस् पुट् दिस् आर्डर् इन् टु कारक। अस्माकम् अध्ययनसमये तु वयं विभक्त्यनुसारं कारकाणाम् अध्ययनं कुर्मः। अतः इदानीं कर्मकारकं पश्यामश्चेत् कर्मकारकविधायकं सूत्रमस्ति कर्तुरीप्सिततमं कर्म इति सूत्रम्, यच्च एकोनपञ्चाशत्तमं सूत्रम्। द्रोणकारकाधिकारा स्टार्टेड् इन् सूत्र नम्बर् 23-349 पाणिनि हस् बिन् कवरिङ्ग् द अदर् कारका। All the four karakas have been covered so far. Apadanam, Sampradanam, Karanam, Adhikaranam. Iti Chaturunam Karakanam Sutrani Samaptani. Idanim Karma Karakam Arabhyate Paninina. Kartaritsita Tamam Karma. Iti Karma Samya Vidhayakam Sutram. Trini Padani Sandhi. Kartuhu Itsita Tamam Karma. Iti Samya Sutram. Karma iti Samya Vidhiyate. कारके इत्यधिकारः अस्ति, प्रथमया विपरिणम्यते। अर्थात् कारके इति सप्तमी विभक्तिः श्रूयते, किन्तु वस्तुतः कारकम् इत्येव स्यात्, प्रथमा विभक्तिरेव स्यात्। किमर्थं तथा विपरिणामः इति इदानीं मास्तु, विचारः अस्ति, किन्तु वस्तुतः प्रथमा विभक्तिरेव भवेत् तत्र इति निश्चितमस्ति। अतः सूत्रार्थः कथमस्ति, कर्तुः क्रियया आप्तुम् इष्टतमं कारकम् कर्मसमयं स्यात्। कर्तुः ईप्सिततमम्, ईप्सा नाम आप्तुम् इष्टतमम्, देर् इस् अ टैपिङ्ग् एरर् हियर्, इट् इस् नाट् अप्तुम्, इट् इस् आप्तुम्। क्रियया आप्तुम् इष्टतमं कारकं कर्मसमयं स्यात् इति सूत्रार्थः। तस्यैव कारकम् इत्यपि संज्ञा भवति, एवं कर्म इति संज्ञा भवति इति अर्थः। तर्हि इदानीं कानि पदानि सन्ति कोऽर्थः इति द्रष्टव्यम्। कर्तुः इत्यस्ति सः कर्ता इति चेत् धातूपार्थव्यापाराश्रयः कर्ता इति उच्यते। धातोः सः अर्थः इति पूर्वं दृष्टम् अस्माभिः, धात्वर्थः व्यापारः फलं च इति दृष्टं किल। ऐ होप् यु रिमेम्बर् द क्षम्यताम् द मेन् कान्सेप्ट् प्लीस् डु नाट् फर्गेट् धात्वर्थ किङर्थ। ओके, सो धात्वर्थः व्यापारः फलं च इति स्मर्तव्यं, सर्वदा स्मर्तव्यं। धात्वर्थ कः इत्युक्ते व्यापारः तथा फलं। व्यापारः नाम क्रिया, तज्जन्यं फलम्, उभयमपि धात्वर्थः। तत्र धातूपात्र व्यापाराश्रयः, धातोः यः व्यापारः, धातुना यः उक्तः यः व्यापारः, तस्य आश्रयः कर्ता। The person who does the kriya, which is dhatvartha, dhatvartha vyaparam yaha nirvartayati saha karta iti uchyate. Kartru vyapara janya phalashreya karma. Kriyaya aptu mishta tamam ityasya vastataha parishkratam lakshanam bhavati. Kartru vyapara janya phalashreya. Na drishyate vayadasti. Mashyam tu drishyate. You will see what is on the screen, I mean the slide. I think you are on a different whiteboard. So, pair 237. इत्यस्ति किल, वैट् बोर्ड् 237 तस्य उपयोगं कुर्वति अस्मि अहम्। ऐ थिङ्क् इट् विल् टेक् सम् टैम् टु लोड्। you'll have to, if your connection is not fast enough, kadachit shikram load na bhavati. So, it will take some time for it to load. So, pratikshitam, I'm using whiteboard 237, tatra klikriyate se dasti, tatra ikshitam om karma. Yadi nada shite tatra chinsit kalam pratikshitam, athava maya purvam preshitam, ataha dasya upayoga ha kriyatam. Ataya maya purvam eva, I send my presentation. अतः कृपया मया यत् ईमेल द्वारा प्रेषितं तस्य उपयोगं कुर्वन्तु कर्तृव्यापारजन्य फलाश्रय कर्म क्रियया आप्तुम् इष्टतमम् इत्यस्य कोऽर्थः इति पश्यामश्चेत् कर्तुः क्रिया नाम व्यापारः कर्तृव्यापार आप्तुम् इष्टतमम् नाम तेन कर्म तया क्रियया किं जायते तेन व्यापारेण किं भवति इति चेत् फलं जायते सत्यं किल वाट् विल् हेपन् फ्रम् दट् क्रिया इस् देर् इस् सम् फल इति वक्तव्यम् उदाहरणार्थं प्रतिधातोरर्थः इक्लित्यनुकूलः व्यापारः इति उच्यते तत्र कर्तुः व्यापारः पाकव्यापारः तज्जन्यं फलं यदस्ति इत्युक्तिः तदाश्रयः कर्म दट् विच् इस् Ashraya for that phala is called karma. Kriyaya aptum ishtatamam karakam. That which the karta desires most to be associated with his kriya. Kartra vanishtha vyapara prayojya phalena sambandhum ishyamanam ityarthah. So there are some things which you will have to remember. Parikshayam lekhanartham va. Etani, these phrases you will have to reproduce as it is. Because they are very precise definitions. Asmabhihi pravakyena vaktum shakyate, kintu kadachit doshaah bhavanti. There are a few phrases which it will be nice if you can, I won't say memorize because it's just one small phrase. Kintu if you remember that and reproduce, that will be the best thing from the point of view of your examination. Arthahadu avagantavyaha eva, kintu arthavagamana nantaram api, एतानि पदान्येव उपयुज्य लिख्यते चेत् उत्तमं भवति कर्तृव्यापारजन्यफलाश्रय कर्म एतावदेव सर्वमस्ति तत्र एव्रिथिङ्ग् दट् इस् नीड्स् टु बी टोल्ड् अबौट् कर्म इस् देर् इन् दट् लक्षण कर्मणः लक्षणे कर्तुः यः कः कर्ता धातुपात्रव्यापाराश्रय कर्ता तस्य व्यापारः धात्वर्थव्यापारः तेन जन्यं यत् फलं तदाश्रयः कर्म उदाहरणं पश्यामश्चेत् स्पष्टं ज्ञायते पाचकः तण्डुलान् पचति इत्यस्ति प्रयोगः पाचकः तण्डुलान् पचति पचधातोः धातुः अस्ति पचधातोः कः अर्थः विकीर्त्यनुकूलः व्यापारः पचधातोरर्थः पाकव्यापारः तत्र फलं भवति विकीर्तिः सो द एक्शन् आफ् कुकिङ्ग् And the end result of cooking, which is the viklitihi, is the softening of rice or whatever is being cooked. There is a change between uncooked material and cooked material. It expands, it softens and all that. That is called viklitihi. Viklitihi anukulaha vyaparaha pasidhato rasthaha tadrisha vyapara ashrayaha pasakaha. Who is the ashraya? Ashraya is the base or who... In whom does it exist? Vyapara exists in the pachaka, the cook. Vyapara asraya pachakaha, ataha saha karta. So, the karta here is pachaka. Katranishtaha vyaparaha saha, iklityanukulaha vyaparaha. Tena janyam phalam bhavati iklityihi. What is the result of that action of the cook is cooking, the thing, the property of being cooked. Where do we find the property of being cooked? That's the question. Ikritehe ashrayaha kaha. It is not pachaka. He is not being cooked himself. I mean, the result of cooking, which is the softening or expanding, where do you see those results? Where do you see those effects? Putra drishyate, tandulesha drishyate. It is the rice, the particles of rice which expand, which soften, etc. Ataha, ikritehe ashrayaha bhavanti tandulaha. अतः अत्र तण्डुलानां कर्मत्वम् अस्मिन् वाक्ये वाचकः कर्ता तण्डुलः कर्म इति उच्यते. सो तण्डुलः कर्म बिकास् कर्त्रा पाचकेन स्वक्रियया पाचकस्य क्रिया का पाकक्रिया तया आप्तुं नाम सम्बद्धुं इष्टतमं कारकं तण्डुलः. What does he want to associate it with his paka? It is with his action. Does he want to associate rice or does he want to associate wheat or say something else? Whatever is that thing will get karma samya. Svakriyaya aptam ishtatamam karakam karma samyam syat. It is lakshana samanyayaha. Is that saying? कर्म नाम किम् कर्तुरिच्छिततमं कर्म कर्तुः क्रियया आप्तुम् इष्टतमं कारकम्. इदानीं सूत्रेषु दलकृत्यम् इति भवति. दलकृत्यम् नाम पदशः सूत्रस्य अवगमनं भवति. इदानीं कर्तुः इच्छिततमं कर्म इत्यस्ति, तत्र प्रत्येकं पदस्य किं प्रयोजनम्? वैरचिते कर्तुः, वैरचिते इच्छिततमम् इत्यादि रीत्या विचारः क्रियते. पदशः इदं पदम् आवश्यकं वा न वा, यदि आवश्यकं किमर्थम् आवश्यकम् इत्यादि रीत्या विचारः क्रियते. तदेव दलकृत्यम् इति उच्यते. प्रत्येकं सूत्रस्य दलकृत्यं भवितुम् अर्हति. इदानीम् अत्र सूत्रस्य विषये किञ्चित् अधिकतया विचारः क्रियते. कर्तुः किम् इति प्रश्नः. कर्तुः किम् इति प्रश्नस्य कः आशयः? सूत्रे कर्तुः इति किमर्थम् उच्यते, कर्तुरीप्सितमं कर्म इति उच्यते किल, किमर्थं कर्तुः इति? केवलम् ईप्सितमं कर्म इत्येव सूत्रम् अस्तु. दट् विच् इस् मोस्ट् डिसैर्ड् इस् कर्म इत्येव भवतु. किमर्थं कर्तुः ईप्सितमं कर्म इति उच्यते इति प्रश्नस्य आशयः. कर्तुः किम् इत्युक्ते कर्तुः इति पदं किमर्थं, सूत्रे तस्य पदस्य कः उपयोगः इति प्रश्नः. प्रश्नस्य उत्तरम् अस्ति माषेषु अश्वं बध्नाति इति उत्तरम्. अत्र माषाणां कर्मत्ववारणार्थं कर्तृग्रहणम्. सो द आन्सर् इस् माषेष अश्वं बध्नाति इत्यत्र माषाणां कर्मत्वनिवारणार्थं कर्तुः इच्छुततमं कर्म इति उक्तमस्ति. कर्तुः इति पदस्य किं प्रयोजनम् इति चेत् माषाणां कर्मत्ववारणम्. सो आल्वेज् इन् अ दलकृत्या वेन् देयर् इस् अ क्वेश्चन् आस्क्ड् बै the vyakhyakara, he will give an pratyudaharane. We call it an example to substantiate that word. Tasya kaha arthaha iti aham vadami, vachyase kaha arthaha iti vadami. I am just trying to tell you the format of dalakrutya. Kartuh kim maajesha ashvam badhnati. Eva meva adre. Samabdhahanam kim payata odanam bhungse. Tiyadaritya sarvatra eva meva bhavati. Prashnaha bhavati. Prashnasya kaha ashayaha. तस्य तत्र उदाहरणस्य कथं समन्वयः इति द्रष्टव्यम्. माषेषु अश्वं बध्नाति इति उत्तरं. माषाः नाम ग्राम्, इट् इस् द वैट् ग्राम्, ऐ डोण्ट् नो वट् उद्दु इस् वाट् वि काल् इट् इन् कन्नड, उद्दिनबेळे. इट् इस् द वैट् कलर्ड् ग्राम् दाल् दट् यु हा उरद् दाल् आर् वाट् एवर्. So that is Masha. Masha Pupa is what you make. He is that in Los Angeles. Masha is Ashwam Badhnati. I mean the scenario here is there is a horse. Horses like gram very much. Okay, they are very fond of this gram. But it is not good for their stomach. If they eat too much of gram, they get sick. Atah Masha Eshu, Atah Masha Kshetre, there is some field which is growing this dal, so he ties up the horse because he does not want the horse to go around and eat up all the dal. So to prevent the horse from eating all the dal and getting sick, he ties up the horse among the gram. Maasheshu ashvam bathnati iti vakyasya saha arthah. Now ichchita samam ityukte desired इत्येव अर्थः. इफ् यु डोण्ट् हाव् कर्तुः, कर्तुः किम् इति प्रश्नस्य कः आशयः? लेट् अस् जस्ट् से इच्छितमं कर्म. कस्य इच्छितमम् इति चेत् अत्र कर्मणः इच्छिताः माषाः. द हार्स् वुड् लैक् द माषा वेरि मच् बट् द कर्ता वुड् लैक् द हार्स्. इफ् यु लैक् द हार्स् टु बि सेफ् रैट्. अत एव उच्यते कर्मणः इच्छिताः माषाः न तु कर्तुः. कर्तुः इच्छिततमं किं तस्यैव कर्मसंज्ञा भवति। अत्र माशेषु भक्षणाय प्रवृत्युन्मुखम् अश्वम् उदरव्यथाभयात् तद्भक्षणात् निर्वर्तयितुम् अन्यत्र दद्माति निवर्तयितुम्। There are some typing mistakes, I'll correct these later. So, the horse is about to eat the gram, but because the owner knows that it will get sick, he is trying to prevent it by tying it up. Now, kartuhu bandhana kriyaya sambadhum ishtatamaha kaha, it is a ashvaha. Kim lakshamasti asmatam, kartuhu ichitatamam karma. Kartuhu vyaparena, atra vyaparaha, bandhana vyaparaha. Nirodhanukulaha vyaparaha. An action which enables prevention of something is called bandhana. Nirodhanukulaha vyaparaha. Tasya tena vyaparena janyam phalam kim nirodhaha. Prevention or tying up or preventing from moving away is the phala of that action. So tasya phalasya ashrayastaha ashvaha. What is being prevented? Ashvaha. Ataha ashvasya karmatva masti. यदि सूत्रे कर्तुः इति पदं न स्यात्, इफ द सूत्र डिड नॉट हैव द वर्ड कर्तुः, इफ इट जस्ट हैड इच्छिततमं कर्म, हु डिजायर्ड बाय हुम इति प्रश्नः, यानी से व्हाट इज मोस्ट डिजायर्ड, केन इति चेत् कर्मणः इच्छिततमत्वं माशाणामपि अस्ति, द हॉर्स वुड लाइक द माशा, अतः माशाणामपि कर्मत्वं स्यात्। सो इन द एब्सेंस ऑफ द वर्ड कर्तुः, इवन द वर्ड माशा वुड हैव गॉट कर्मत्व इन दिस केस। So to prevent that, he very clearly says, Kartuhu ishtatamam. Kartuhu svakriyaya aptum ishtatamam yatkarakamasti, tadeva karma bhavati, natu anyesham yad ishtatamam. What is the action in context? Who is the doer of the action? And what does that doer, karta, desire? That thing will get karmatva and not anything else. Kartuhu kim maasheshu ashvam vadna e. कर्मणः इच्छिताः माशाः न तु कर्तुः। ततः पृच्छते तमग्रहणं किम्। अयः ओदनं भूते इच्छिततमम् इति उच्यते। किमर्थम् इच्छिततमम् इति उच्यते इति प्रश्नः। उदाहरणम् अस्ति पयसा ओदनं भूते। पयः नाम अत्र क्षीरम् इत्यर्थः। पयशब्दस्य क्षीरम् इत्यपि अर्थः अस्ति, जलम् इत्यपि अर्थः अस्ति। इट् केन् बि यूस्ड् टु मीन् बोत् मिल्क् एण्ड् वाटर्। अत्र तु क्षीरम् इत्येव अर्थः। पयसा मिश्रम् ओदनं भूते इत्यर्थः। हि ईट् रैस् विच् इस् मिक्स्ड् वित् मिल्क् इत्यर्थः। अत्र पयसः कर्मत्ववारणार्थम् ईप्सिततम पदग्रहणम् इति उच्यते। सो टु प्रिवेण्ट् द कर्मसंज्ञा फार् द वर्ड् पयस्, हि यूसस् द वर्ड्, पाणिनि यूसस् द वर्ड् ईप्सिततम। सो वाट् द सेलर् वाण्ट्स् टु आस्क् यू, द वाट् इस् द वर्ड् विच् इस् गेटिङ्ग् कर्मसंज्ञा, सो से दट् वै डस् पाणिनि यूस् द वर्ड् ईप्सिततम इस् द क्वेश्चन्। अत्र कः अर्थः? पयसा ओदनं भुङ्क्ते इत्यस्य पयोमिश्रितम् ओदनं भुङ्क्ते इति अर्थः। नौ अत्र यद्यपि भोक्तुः उद्देश्यं पयः अपि ओदनमपि, सो यु सी दट् द डूअर् डस् नाट् वाण्ट् टु हेव् जस्ट् मिल्क् और् जस्ट् रैस्, हि वाण्ट् टु हेव् रैस् मिक्स्ड् वित् मिल्क्, सो हिस् डिसैड् इस् बोत्, he wants both milk and rice, he wants rice which is mixed with milk. Bhoktuhu uddesham bhavati payaha api odanam api, na kevalam payaha icchati na api kevalam odanam. So why should we not have karma samya for both payas and odanam is the question. When he desires both odana and payas, kimartham ubhayohu karmatvam nasti, kimartham kevalam odanasya karmatvam iti prashnaha. अत एव तत्र ईप्सिततमम् इति उक्तम्। तमग्रहणम् अत्यन्तं सकर्षं सूचयति। तमप् इस् आल्वेस् अतिशायने तमविष्टनौ, इन्क्लूड् इट् इस् अ सुपरलेटिव् एक्स्प्रेशन् ईप्सिततमम्। अत्र ईप्सिततमं किम् इति पश्यामश्चेत् ओदनमेव ईप्सिततमम्।
Why? Because ओदनं प्रति मिश्रणतया अथवा संस्कारकतया गुणत्वेन एव पयसः उद्देश्यत्वम्. Pious is intended to be something which is mixed with rice and not taken independently. अत्र इच्छिततमं वस्तुतः भोजनक्रिया नाम गलविलाधसंयोगानुकूलः व्यापारः. तादृशस्य व्यापारस्य फलं किमस्ति? गलविलाधसंयोगः. To take something down the throat is called bhojana. Okay, bhojana kriyayaha sevartha. So, taya kriyaya yat phalam asti, tena aptum prakarshena ishtatamam bhavati odanam eva. Payasaha satrakim patram iti cheta, mishrana taya athava samskaraka taya. It is intended as something which is used to, samskaraka is to, what, to mix with rice or to samskara is to say refine or polish something. Okay, to process rice. Okay, so cooked in milk nasti yata mishranam eva. You take rice, you mix it with milk and eat it. Just like you mix it with buttermilk and eat something like this. You mix it with milk and eat. पयसा ओदनं भुङ्क्ते इत्यस्य मिश्रणं पयसा मिश्रम् ओदनं भुङ्क्ते इत्येव अर्थः. सो पयस् इस् इण्डिकेटेड् एस् अ गुण एस् अ क्वालिटि आफ् रैस् एक्चुली हि ईट्स् रैस् वाट् कैण्ड् आफ् अ रैस् रैस् मिक्स्ड् वित् मिल्क् इत्येव अर्थः न तु स्वयं भोज्यत्वेन. इट् इस् नाट् मिल्क् विच् इस् डिसैड् एस् द फल आफ् द भुजिक्रिया. So, the one which is directly associated with bhuji kriya is odana, and payas or milk is intended only as a guna, as a mishraka, as a mixing thing with that milk. Yada tu payaha eva ikshitatamam. If he wanted to take directly milk, tada kim bhavati payo bhunkte. He drinks milk, ityeva bhavati. Natu payasa odanam bhunkte. So, payasa odanam bhunkte ityatra. ओदनस्यैव इच्छिततमत्वम् अस्ति, न तु पयसः. पयसः केवलं मिश्रणतया अथवा संस्कारकतया उपयोगः. अतः इच्छिततमपदस्य बलात् केवलम् ओदनस्य कर्मसंज्ञा भवति, न तु पयसः. दट् विच् इस् द मेन् टार्गेट् आफ् दट् क्रिया. वाट् इस् द मेन् इण्टेण्डेड् पर्पस् आफ् दट् क्रिया? दट् विल् गेट् कर्मसंज्ञा एण्ड् नाट् एव्रिथिङ्ग् दट् इस् डिसैड्. देर् मैट् बि As in this case, even though he desires both milk and odana, kevalam odana seva karmatvam bhavati, tasyaiva pradhanataya ichchita tamatvat. Payasaha tu odanena saha mishranataya upayogaha asti. Important ityasya katham nirnayaha ityapi prashnaha. How do you decide what is important? It is prashna. Whether he, if he wants to drink both separately, yadi ichchati, tarhi payaha odanam cha bhunkte iti bhavati. Tada tu ubhayoh karmatvam bhavati. He drinks milk and he takes eats rice. Iti bhavati. Payaha bhojanam cha bhunkte. Tata chakarena samuchyaya jnayate ubhayoh karmatvam bhavati. Hintu that is not the vivaksha here. And one thing you should always remember, vivakshata karakani bhavanti. Vivaksha, vaktuhu ichha. What do I intend to convey? Ichya kreva, that is what decides karakas, all karakas. If I decide, if my intention is to say that I take milk and I also eat odanam, then payaha bhunkte, odanam bhunkte, eti ubhayohu karma samya bhavati. Hintu, यदा पयोमिश्रितं भोजनं भुङ्क्ते इति मम विवक्षा, तदा पयसः कर्मसंज्ञा न भवति. किमर्थं? तत्र ओदनस्यैव इच्छिततमत्वं, पयसः तु मिश्रणतया उद्देश्यत्वमस्ति, न तु इच्छिततमत्वम्. अग्रिमः प्रश्नः, कर्म इत्यनुवृत्तौ पुनः कर्मग्रहणम् आधार निवृत्त्यर्थम्. कः प्रश्नः? कर्म इति अनुवृत्तौ इति वदति. वस्तुतः एतस्मात् पूर्वसूत्रम् अस्ति अधिहिंसासां कर्म कर्तरिप्सिततमं कर्म इति सूत्रम् एकोनपञ्चाशत्तमम् इट् इस् द 49th सूत्र इन् द पाद द 46th सूत्र आफ् द पाद हेपन्स् टु बि अधिहिंसासां कर्म अस्मिन् सूत्रे कर्म इति पदम् अस्ति तस्मात् सूत्रात् कर्तरिप्सिततमम् इत्यत्रापि कर्म इति अनुवर्तते अनुवृत्तिः पूर्वसूत्रात् परसूत्रेषु पदस्य अनुवृत्तिः भवति सो कर्म इत्यनुवृत्तौ पूर्वसूत्रादेव अस्मिन् सूत्रे कर्म इति पदम् अनुवर्तते पुनः अस्मिन् सूत्रे कर्मग्रहणं किमर्थम् इति प्रश्नः पाणिनि डस् नाट् रिपीट् हिस् वर्ड् इकोरेणसि इत्यत्र असि इति उक्ते पुनः अग्रे एतो यवायावः इत्यत्र असि इति अनुवर्तते पुनः असि इति नोच्यते अत्र किमर्थं वदति कर्तरिप्सिततमम् अधिहिंसासां कर्म इति सूत्रादेव कर्म इत्यनुवृत्तिः अस्ति पुनः कर्तरिप्सिततमं कर्म इति किमर्थं वक्तव्यम् इति प्रश्नः केवलं कर्तरिप्सिततमम् इति उक्ते पूर्वसूत्रात् कर्म इति अनुवर्तते किल इति प्रश्नः तदा किं वदति कर्म इत्यनुवृत्तौ पुनः कर्मग्रहणम् अस्मिन् सूत्रेऽपि पुनः कर्मग्रहणं क्रियते आधारनिवृत्त्यर्थम् किमिदम् इति चेत् अन्यथा गेहं प्रविशति इत्यत्रैव स्यात् इति उदाहरणमपि ददाति सो यु हाव् अधिहिंसासां कर्म अस्मिन् सूत्रे आधारोऽधिकरणम् इति ततोऽपि पूर्वसूत्रम् दट् इस् वै द सूत्रक्रम आफ् अष्टाध्यायी बिकम्स् इम्पार्टेण्ट् इफ् यु लुक् एट् अष्टाध्यायी इट् इस् आधारोऽधिकरणम् अधिहिंसासां कर्म अभिनिविशश्च उपान्वध्याङ्गतः कर्तरीप्सिततमं कर्म इति सूत्रक्रमः If you have an Ashtadhyayi or if you can look at Ashtadhyayi later, just open this Karaka Prakarana and see. As I told, that is why we are looking at Karaka. Karakanam Katham Kramaha Ashtadhyayam iti uktam. Adav Apadanam Sampadanam Karanam Adhikaranam. Adhara Adhikaranam iti sutrena Adhikarana Karakam uktam. Tataha Adharaha iti anuvritya Adhishinsthasam Karma iti uchyate. Tatra kaha arthaha Adhishinsthasam आधारः कर्मसंयम स्यात् इति सूत्रार्थः भवति आधार इस् द लोकेशन् आफ् द प्लेस् वेर् इट् हेपन्स् प्लेस् आर् वेर् एवर् आधार इस् काल्ड् कर्म सो फ्रम् द नेक्स्ट् सूत्र द जनरली आधार इस् काल्ड् अधिकरण दट् इस् रैट् इस् काल्ड् द लोकेटिव् केस् सप्तमी विभक्ति आधार आफ् कर्ता आर् कर्म द लोकेशन् आफ् द क्रिया इस् काल्ड् अधिकरण But in certain special cases, the Adhara itself will be called Karma. That is what is told by Adhishinsthasam Karma. Adhishinsthasam Adharaha Karma Samyam Syat iti Sutrarthaha. Now, taking it forward, Adhishinsthasam Karma Sahartaha Adhishinsthasam Adharaha Karma Samyam Syat iti Vadati. Punaha Abhinivishascha Abhinivishaha Adharaha Karma Samyam Syat. उपान्वध्याङ्गतः आधारः कर्मसंयम स्यात् कर्तुरीप्सिततमम् कर्तुः ईप्सिततमः आधारः कर्मसंयम स्यात् इत्येव अर्थः अत्रापि भवेत् इफ् पाणिनि डस् नाट् रिपीट् दट् कर्म द मीनिङ्ग् विच् यु आर् गेटिङ्ग् फ्रम् अनुवृत्ति इस् आधार विल् बि काल्ड् कर्म आधार इस् द लोकेशन् ओके सो वेर् एवर् दर् इस् लोकेशन् दट् विल् बि काल्ड् कर्म इस् वाट् द प्रीवियस् सूत्रस् आर् टेलिङ्ग् अत्रापि सः एव अर्थः स्यात् तदा किं भवति गेहं प्रविशति यत्र ईप्सिततमस्य आधारत्वम् अपि अस्ति तत्रैव कर्मसंज्ञा स्यात् वेर् अ पार्टिकल् हेज् बोत् ईप्सिततमत्व एण्ड् आधार देर् ओन्ली वि वुड् हेव् कर्मसंज्ञा गेहं प्रविशति इत्यस्ति गृहं प्रविशति इत्यर्थः अत्र गृहं प्रवेशक्रियायाः आधारः अस्ति तथैव ईप्सिततमम् अपि अस्ति अतः अत्र कर्मसंज्ञा अस्ति ओके सो दिस् वुड् बि फैन् किन्तु फलं खादति इत्यत्र कर्मसंज्ञा न भवेत् इफ् द आधार इस् बीङ्ग् टेकन् एस् अनुवृत्ति इवन् इन् दिस् सूत्र जस्ट् लैक् इन् द प्रीवियस् सूत्र एव्रिवेर् यु आर् सेयिङ्ग् आधारः कर्म भवति आधारः कर्म भवति इति यथा उच्यते तथा अत्रापि यदि उच्यते तदा गेहं प्रविशति इत्यादौ कर्मसंज्ञा भवति किन्तु फलं खादति इत्यत्र वा हरिं भजति वा इत्यत्र वा कर्मत्वं न भवति only in Geham Pravishati, since Geha is also an Adhara, Griha is also the location for the action, you will get Karma Samya. But where there is no locative intention, Yatha Tandulam Pachati, there is no, Tandula is not the location for anything. Evam Harim Bhajati, Hari is not the Adhara. In such cases, we would not have Karma Samya. So, why does Panini again say Karma? Adhara Nivruttyartham. By again emphasizing on karma, Panini says that the adhara, the word adhara which is being taken as anuvritti so far, has stopped. So from now on, whether it is adhara or not, as long as it is ichchita tama, it will be called karma. Did you understand? Maybe it would be easier to understand after we do adhishing sasam karma, etc. Kintu, would you like to explain again, punaha ichchanti va, avagatam va? Asana prashna asti che pichyata. So, karma ityanuvrittau punaha karma grahanam adhara nivrityattham. Anyatha geham pravishati ityatraiva syat. Iti ichyate. Okay. तरही अग्रे गच्छामः अग्रेम सूत्रमस्ति अनभिहिते इत्यभिकृत्य पुनः अधिकार सूत्रम् वस्तुतः किं जातम् इदानीं वाचकः तण्डुलान् पचति इत्यत्र तण्डुलपदस्य कर्म इति संज्ञा दत्ता तण्डुल हैज बीन कॉल्ड कर्म बट व्हाट टेल्स यू दैट कर्म विल गेट द्वितीया विभक्ति इतोपि नोक्तं किल केवलं तण्डुलानां कर्म इति संज्ञा भवति इति उक्तं तावदेव तण्डुल इस् कॉल्ड कर्म सो वाट् कदाचित् नामकरणं क्रियते चेत् तन्नाम उपयुज्य किमपि करणीयं भवति किल सो वै इति प्रश्नः वै डु वि काल् इट् अ कर्म वाट् इस् द यूस् आफ् गिविङ्ग् इट् आर् नेमिङ्ग् इट् एस् कर्म इति प्रश्नः तदा किं वक्तव्यं कर्मकारकस्य द्वितीया विभक्तिः भवति इति वक्तव्यं सूत्रेण तदर्थमिदानीम् उच्यते अनभिहिते इति अधिकारः इत आरभ्य स्टार्टिङ्ग् फ्रम् हियर् चतुर्थी जातिश्यायिष्य मद्रभद्र कुशल सुखार्थहितैः इति सूत्रमस्ति तत्सूत्रपर्यन्तम् अनभिहिते इति अधिकारः अस्ति दिस् इस् अनदर् अधिकार जस्ट् लैक् कारकाधिकार दिस् इस् अनभिहिताधिकार इट् स्टार्ट् फ्रम् द फस्ट् सूत्र आफ् द थर्ड् पाद् आफ् द सेकेण्ड् चाप्टर् द्वितीयाध्यायस्य तृतीयपादे प्रथमसूत्रानारभ्य अन्तिमसूत्रपर्यन्तम् द एण्टैर् पाद इट् इस् अनभिहिते किं नाम तत् अष्टाध्याय्यां कारकविधायकानि सूत्राणि कुत्र सन्ति प्रथमाध्यायस्य चतुर्थपादे सन्ति जस्ट् नो वि सा द कारकाधिकार 1423 कारकविधायकानि सूत्राणि प्रथमाध्यायस्य चतुर्थपादे अस्ति विभक्तिविधायकानि सूत्राणि तु द्वितीयाध्यायस्य तृतीयपादे सन्ति सो वी आलरेडी नो ऐ होप् बै नो इट् इस् क्लियर् दट् देर् इस् अ डिफरेन्स् बिट्वीन् कारक एण्ड् विभक्ति सो कारकविधायकानि सूत्राणि प्रथमाध्याये सन्ति विभक्तिविधायकानि सूत्राणि द्वितीयाध्यायस्य तृतीयपादे सन्ति तेषु सूत्रेषु विभक्तिविधायकसूत्रेषु सर्वत्र अनभिहिताधिकारः अस्ति अनभिहिते इत्यधिकारः सर्वेषु विभक्तिविधायकेषु सूत्रेषु अस्ति अनभिहिते इत्यस्य कोऽर्थः अभिहिते नाम उक्ते बीङ्ग् सेड् इत्यर्थः और् बीङ्ग् टोल्ड् अनभिहिते अनुक्ते वेन् इट् इस् नाट् टोल्ड् वेन् वाट् इस् नाट् टोल्ड् यम् अर्थं वक्तुं सा विभक्तिः उच्यते विभक्ति इस् इण्टेण्डेड् टु इण्डिकेट् पर्टिक्युलर् मीनिङ्ग् फार् एक्साम्पल् कर्मणि द्वितीया इत्युक्ते द्वितीया विभक्तिः कर्मकारकं सूचयितुं भवति कमपि अर्थं सूचयितुं विभक्तिः भवति सः अर्थः अन्येन पदेन यदि उक्तः इफ् दट् मीनिङ्ग् हेज् आल्रेडी बीन् कन्वेड् बै सम् अदर् पार्टिकल् इन् दट् सेण्टेन्स् तस्मिन् वाक्ये अन्येन वाक्येन सः अर्थः यदि उक्तः तर्हि सा विभक्तिः न भवति अनुक्ते एव सा विभक्तिः भवति अनभिहिते As long as the meaning which that vibhakti intends to convey is not told by any other particle in that sentence, तदैव सा विभक्तिः भवति. यदि सः अर्थः अन्येन पदेन उक्तः तदा सा विभक्तिः न भवति. दट् इस् आल् इट् मीन्स् वेरि सिम्प्लि. इफ् द विभक्ति इस् बीङ्ग् टोल्ड् टु कन्वे सम् मीनिङ्ग्, इफ् दट् मीनिङ्ग् हेस् आल्रेडी बीन् कन्वेड् बै सम् अदर् आर्टिकल् आफ् द सेण्टेन्स्, तदा इयं विभक्तिः न भवति. उदाहरणार्थं कर्मकारकस्य द्वितीया विभक्तिः उच्यते. द नेक्स्ट् सूत्र विल् टेल् कर्मकारक फार् सोरि द्वितीया विभक्ति फार् कर्मकारक. यदि कर्मकारकम् अन्येन उक्तम्, इफ् द कर्मकारक हेस् आल्रेडी बीन् इण्डिकेटेड् बै सम् अदर् वर्ड्, तदा द्वितीया विभक्तिः न भवति. कथम् उच्यते इति अग्रे पश्यामः. हौ केन् इट् बी टोल्ड् बै सम् अदर् पार्टिकल् इस् वाट् यु हेव् टु नो. किन्तु अनभिहिते इत्यधिकारः सर्वेषु विभक्तिविधायकसूत्रेषु अस्ति. तत्र प्रथमं सूत्रमस्ति कर्मणि द्वितीया, तस्मिन् पादे द्वितीयं सूत्रम् अनभिहिते कर्मणि द्वितीया. पदद्वयमस्ति, अनभिहिते इत्यधिकारः अस्ति, अनुक्ते कर्मणि, अनभिहिते इत्यस्य अनुक्ते इत्यस्य, अनुक्ते कर्मणि द्वितीया स्यात्. यदा कर्म अन्येन नोक्तं तदा कर्मपदस्य द्वितीया विभक्तिः भवति. उदाहरणम् अत्र दीयते, हरिं भजति. नोटिस् कौमुदी इन् कर्तरीप्सितकमं कर्म, हि डस् नाट् गिव् एन् एक्साम्पल् फार् कर्म. हि जस्ट् डैरेक्ट्लि गोस् टु दलकृत्य, हि सेस् कर्तुः किम् आशेषश्वं बध्नाति, तमं ग्रहणं किम् एक्सेट्रा. हि डस् नाट् गिव् एन् एक्साम्पल् बिकास् द विभक्ति इस् बीङ्ग् टोल्ड् नौ. तत्र केवलं कर्म इति नाम दत्तं, विभक्तिम् उपयुज्य अत्र उदाहरणं दीयते. हरिं भजति इति कर्मकारकस्यापि उदाहरणं, द्वितीया विभक्तेरपि उदाहरणम्. भजति प्रीत्यनुकूलः व्यापारः भजधातोः अर्थः. सो भजधातु इस् इण्डिकेटेड् टु प्लीज् सम्बडि. हरिं भजति इत्यस्ति भजधातोः अर्थः प्रीत्यनुकूलः व्यापारः इति उच्यते. प्रीतिः pleasing somebody. So, bhajana is something which results in pleasing of somebody. Tatra karta bhavati bhaktaha. Bhajana, prityanukula vyaparasya ashrayaha bhaktaha, ataha bhaktaha karta. Tasya phalam bhavati pritihi. So, the effect of such an action is being pleased. Sa pritihi kutra bhavati. It is said that harau bhavati. Hari is pleased. If a devotee is does bhajana of hari, it is hari who is pleased. Ataha ishrita tamasmat harehe karma samya iti karmani dvitiya iti anena sutrena tasya padasya hari shabdasya dvitiya vibhakti bhavati iti udaharana samanvayaha. That is the simple udaharana of harim bhavati. Karmani dvitiya bhavati, the karma karaka will get dvitiya vibhakti. किन्तु अन्यदपि उच्यते, किम् उच्यते, अनुक्ते कर्मणि द्वितीया विभक्तिः इति उच्यते. अनभिहिताधिकारस्य किं फलमस्ति, अनुक्ते कर्मणि द्वितीया, तस्य अनुक्तत्वं कथम् इति द्रष्टव्यं. कण्टिन्यू द नेक्स्ट् क्लास् अनभिहितकारः इट् टेक् टैम् एण्ड् इट् इस् अ वेरि इम्पार्टेण्ट् कान्सेप्ट् डिस्कसिङ्ग् आन् वै ते बालः गच्छति, वै बाल इस् नाट् कर्ता, और् वै इस् इस् नाट् कर्तरि प्रथमा. So all those will be covered in Anabhihitadhikara. Asya vishaye agrima varge pashyamaham. Idanim kopi prashnah asti chet prashyatam. Note samapayam. Yena akshatamam nāyam adhi yagmumaheshwara. भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मिन्नित्रयम् मुनित्रयं नमस्कृत्य तदुत्तीर्थरि संस्कृतया एनाकरणसिद्धान्तकौमुदीं निरच्यते.